सर्वेषां स्वागतम्. अद्य अस्माकं गीतासोपानस्य वर्गः पुनरावर्तते. अद्यतनप्रार्थना सुशीला भगिनी करिष्यति. भगिनी करोतु भगिनी, अन्ये सर्वे म्यूट् मध्ये भवन्तु इति.
सिन्दूरवर्णं द्विभुजं गणेशं लम्बोदरं पद्मदले निविष्टं ब्रह्मादिदेवैः सिद्धैर्युतं तं प्रणमामि देवं सरस्वती प्रियं दृष्टा वीणा पुस्तकधारिणी हंसवाहसमायुक्ता विद्यादानकरी मम. ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः. ॐ सहनावतु पुनक्तु सह वीर्यं कर्वावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. दत्तावसाने नटराजराजः निनादढक्कां नवपञ्चवारम् उद्धर्तु कामस्तनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम्. पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् मन्ये संस्कृतमातरम्. नमो नमः.
धन्यवादः भगिनी, समीचीनतया उक्तवती. तत्र स्थगनं सम्यक् आसीत्, पास् सम्यक् कृतवती, उच्चारणमपि सम्यक् आसीत्. धन्यवादः भगिनि. नूतनः आगता चेत् तत्र नूतनः नाम वदन्तु कृपया. विलम्बेन केनापि आगतं वा?
नमस्कारः भगिनि, अहं निर्मला भाषि.
समीचीनं भगिनी, निर्मला भगिनी स्वागतम्. अत्र श्रीनिवास् इति कश्चन नाम.
अजय श्रीनिवास्.
नूतनः वा?
न भगिनि,
पुरातनवर्गे न आसीत् किल?
आम्.
दट्स् वै ऐ आस्क्ड्. आर् यु न्यू? ऐ आस्क्ड्. न
मध्ये
मध्ये मध्ये आगच्छति वा? चिन्ता मास्तु महोदय, स्वागतम्. अस्तु, तर्हि आरम्भं कुर्मः. अद्यतन अस्माकं सुभाषितमध्ये अद्य सुरेश महोदय अस्मान् किञ्चित् बोधयितुम् इच्छति. तत्र षड् धर्माणि, धर्मकर्माणि, कार्याणि किं किम् इति सुरेश महोदय अस्मान् बोधयति. तत्र नार्याः अपि च पुरुषस्य अपि किम् अस्ति तत्र इति सः अस्मान् बोधयति. सुरेश महोदय.
आम् महोदय, प्रयत्नं करोमि. दोषाः अस्ति चेत् क्षम्यताम्.
चिन्ता मास्तु, यत्र क्लेशः अस्ति तत्र आङ्ग्लभाषायां वक्तुं शक्नोति, परन्तु प्रयासः करोतु.
संस्कृतभाषायाः सह प्रयासं करोमि. सुप्रभातं सर्वे. कार्येषु दासी, करणेषु मन्त्री, भोजेषु माता, शयनेषु रम्भा, एतानि चत्वारि वाक्यानि वयम् अशृणुमः. द्वे अन्ये गुणे अपि च वर्तते इति मान्यामहे. रूपेषु लक्ष्मी, क्षम्येषु दरिद्री, एतानि गुणानि उत्तमपत्नी सूचयन्ति इति विश्वासः अस्ति. भिन्नदृशीक शक्नोति. कार्येषु दासी इत्युक्ते सा कार्यं सकृत्यभावेन अपि च विस्तरेण करोति, परिपूर्णतयो एषि. करणेषु मन्त्री, समीचीनम् उपदेशं दातुं विज्ञानं समर्थ्यम् अपि च कालता प्राप्नोति. भोजेषु माता, माता केवलं पाचिका अस्ति इति न मन्ये। माता शिशोः कुटुम्बस्य च आरोग्याय अपि च पोषणार्थाय खादयति। सम्भाषणं करोति। शयनेषु रम्भा। रम्भा बालसमुद्रस्य मन्थना चीयते। अस्माकं जीवनेषु नित्यं मन्थनम् अपि अस्ति। शयनेषु निद्रायाः शान्तिं प्राप्तुं शक्यां। सति पतेः शान्तिस्थितिः अति अस्ति इति सूचयति। पतिः अपि सतेः शान्तिस्थानं वर्तते इति शक्यम्। रूपेषु लक्ष्मी। तत् हृदये भक्ति अपि च विनयं सूचयति। केवलं भौतिकरूपं न, नित्यं पति वा भगवत् अनुवर्तनं करोति। क्षम्येषु दरिद्री। अनन्तं सर्वेभ्यः सर्वदा च क्षमागुणम् अपि च सहनं सूचयति। एतानि गुणानि केवलम् उत्तमसतेः न अस्ति, एतानि तु सर्वाणां नारीणां सदा स्वभावेन सन्ति। पुरुषेषु कानि गुणानि अवश्यम् आवश्यकम् इति पश्यामः। कार्येषु योगी। कार्यं कुर्यात् योग्यता प्राप्तुम् आवश्यकम्। अपात्रैः न कुर्वन्तु, मानवजीवनस्य उत्तमलक्ष्यैः प्राप्तुं प्रयत्नं कृतवन्तः। करणेषु दक्षः। उपदेशं दत्त्वा प्रतिभाजते। रूपेषु कृष्णः। अनेकानि विज्ञातानि सत्त्वे प्रशान्तवदनं च सर्वदा हसित्वा जीवनाय अग्रे सराम। किमपि उग्ररूपं न दर्शयतु। क्षमयेतु राम्या। शत्रुवे अपि क्षमा ददातु यदा सः शरणं पृच्छति। एतत् अन्तःशान्ति साधयितुम्। भोजेषु तृप्तः। भोजनम् अपि च सर्वविषये केनपि प्राप्नोति सः सन्तुष्टेन वर्ततु। सुखदुःखानि मित्रः। वयं जानीमः एते द्वे गुणानि भिन्नरूपेण पुरुषेषु अपि च स्त्रीषु प्राप्तुं शक्नुमः इति सूचयति। परन्तु पुरुष अपि च नार्यां पुल्लिङ्ग च स्त्रीलिङ्गस्वभावं वर्तेते। तानि सवर्णानि गुणानि तानि सर्वाणि गुणानि लभ्यन्ते। एतत् एव अर्धनारीश्वरतत्त्वं। कानिचन परिस्थितिषु स्त्रीलिङ्गगुणं वा पुरुषलिङ्गगुणम् आवश्यकम्। एतानि गुणानि लिङ्गभेदार्थार्थं न दृश्यन्ते। धन्यवादः।
बहु समीचीनं महोदय।
My idea was to say that we typically look at these two as describing a woman as a wife or a man as a husband. I think, I believe that these two sets of qualities are required and exist in all human beings.
Very
and
true.
You know, they come up to play up in different situations.
Bahu samichinam, bahu samichinate uktavan bhavan. Tatra bahu samyak mahyam kim atra bahu ishtavati ityukte tatra adhanarishara tattvam iti uktavan kila. Tat bahu samichinam. Asmasu sarvasu tatra striyah va purushasya va tatra गुणाः वर्तन्ते एव। केवलं नार्याः गुणः नो चेत् पुरुषाः गुणः इति तत्र विभजनं कृत्वा वदामश्चेत् तत्र समीचीनं न भवति। तदर्थं तत्र तथापि तत्र अधिकतया के गुणाः स्त्रीषु वर्तन्ते अपि च के गुणाः पुरुषेषु भवितव्यम् इति श्लोकाः सन्ति, तदेव महोदयेन तत् अत्र प्रतिपादितम्। अत्र किञ्चित् पाठान्तरः इत्युक्ते श्लोकभिन्नरीत्या अपि दृश्यते। अत्र यत् अहं स्थापितवती तत्र किञ्चित् परिवर्तनमस्ति। तत्र किम् इति पश्यतु महोदय. भवान् अपि पश्यतु, भवान् यत् उक्तवान् अत्र समान अर्थः बहुत्र, परन्तु किञ्चित् भेदः अपि वर्तते इति, कश्चित् भेदः. तर्हि अत्र किम् आसीत् इत्युक्ते कार्येषु मन्त्री, मन्त्री यदा सर्वदा उपदेशं दत्त्वा नृपः पालयति अपि च तस्य शासने पोषणमपि करोति, तर्हि तत्र जीवने यदा कदापि प्रगति आगच्छति, नो चेत् यदि वयम् अधः पतनं भवति अस्माकं, तर्हि तत्समये उत्तमनारी यदस्ति सा तु मन्त्री इव उपदेशं करोति. वयमपि दृष्टवन्तः पूर्वं द्रौपद्याः विषये, द्रौपदी कथं पाण्डवान् उपदिष्टवती इति तत्र दृष्टवन्तः. तथैव कार्येषु नारी मन्त्री इव कार्यं करोति इति. कार्येषु करणेषु द्वावपि समानमेव महोदयेन कार्येषु.
श्लोकेन तु अपि कार्येषु दासी, करणेषु मन्त्री, भोज्येषु माता इति.
हा हा, तदेव उक्तवती. कुत्रचित् भेदः दृश्यते, परन्तु कार्येषु मन्त्री नो चेत् करणेषु मन्त्री, तत्र तावत् भेदः नास्ति इति मम चिन्तनम्. एतादृशमपि वक्तुं शक्नुमः, भवान् यदुक्तवान् करणेषु मन्त्री, कार्येषु दासी, तदपि वक्तुं शक्नुमः. तर्हि तत्र करणेषु दासी इति कथनेन दासी किं करोति, तत्र निस्वार्थतया कार्यं करोति, सा किमपि न अपेक्ष्यते. अतः तादृशं स्वार्थरहितं भूत्वा सर्वाणि कार्याणि करणीयानि इति अस्ति. तदनन्तरं भोज्येषु इति अस्ति, कुत्रचित् स्नेहेषु इत्यपि दृश्यते. तर्हि माता इव सर्वत्र, यथा महोदयः उक्तवान् तत्र सा पाचिका तु अस्ति, परन्तु सा अपि निस्वार्थतया कुटुम्बस्य शिशूनामपि पालनं पोषणं करोति, अपि च भोज्यं ददाति. तदनन्तरं शयनेषु रम्भा इति अस्ति, कुत्रचित् तत्र वेश्या इत्यपि दृश्यते, भिन्नभिन्नरूपाणि सन्ति इति. तर्हि यथा शयनविषये आगच्छति, पत्नी पतिम् अनुकूलयति इति कृत्वा तत्र शयनेषु रम्भा इति उक्तमस्ति. तत्र रूपेषु लक्ष्मीः, तर्हि सौन्दर्यं कथमस्ति, अपि च केवलं सौन्दर्यम् एव नास्ति तत्र, तत्र तु ऐश्वर्यम्, अपि च ऐश्वर्यविषये केवलं सम्पत् इति न वदामः खलु, तर्हि तत्र अष्टरूप ऐश्वर्याणि भवन्ति इति. तादृशलक्ष्मीरिव भवति नारी इति अस्ति. तथैव अत्र धर्मेनुकूला, धर्मे अनुकूला इत्यपि एकत्र दृश्यते. इत्युक्ते कस्यचित् कार्यं करणीयं चेत् कार्यस्य विषये तत्र धर्मपालनम् आवश्यकम् अस्ति. तर्हि यदा पतिः अधर्मं करोति, नो चेत् अधर्ममार्गे गच्छति, तर्हि नारी तस्तां धर्ममार्गम् आनयति इति. तर्हि धर्ममार्गे चरणार्थं पतेः पत्युः अनुकूलं करोति इति अस्ति. तदनन्तरं क्षमया दरित्री, क्षमा अस्ति, सहनशीलता आवश्यकम्. धरित्री इत्युक्ते का? धरित्री इत्युक्ते भूमिः. भूमिः कदा भवति? सर्वदा शान्ता, सहनशीला, क्षमायुक्ता अस्ति. तथैव नारी अपि तथैव भवेत् इति अस्ति अत्र. भवतः श्लोके महोदय, तत्र क्षमया इत्यत्र भिन्नवार्ता आसीत्, तत्र क्षमा इति स्त्रीलिङ्गपदमस्ति, अतः क्षमया इति भवेत् इति अहं चिन्तयामि. भवान् किं स्थापितवान् इति इदानीं न स्मरामि. क्षम्यता, न किम् उक्तवान् तत्र भवान्?
एकनिमिषम्, क्षम्येतु दरित्री इति अनन्तं सर्वेभ्यः सर्वदा च
न क्षम्ये न तत्रैव वदतु पुनः. दरिद्री इत्यस्य प्राक् किम् अस्ति?
क्षम्येषु दरिद्री,
क्षम्येषु. आहा, तर्हि क्षम्य इति पदं योजितवान् भवान्. अत्र क्षमया धरित्री इति आसीत्. तर्हि अत्र षड् गुणानि, धर्मकर्माणि अत्र निर्दिष्टाः सन्ति. षट् कर्म नारी, कुलधर्म पत्नी इति पत्न्याः षड् धर्मकर्माणि अत्र विशिष्टरूपेण उक्तमस्ति. एतत् श्लोकं कुत्रचित् शास्त्रेषु दृश्यते, स्त्रियाणां विषये इति. स्त्रीधर्ममङ्गले शास्त्रेषु एतत् अयं श्लोकः अस्ति इति. परन्तु यत्र भिन्नश्लोकः उक्तवान् तथैव पुरुषाणां धर्मकर्माणि इति यत् उक्तवान् तत् कुत्र प्राप्स्यते इति न जानामि. परन्तु समीचीनमस्ति, कार्येषु योगी, करणेषु दक्षः. यत्किमपि कार्यं करणीयं तत्र योगिरिव तत्र एकता दृढता भवेत्, तत्र चञ्चलता मास्तु. अपि च करणेषु दक्षः, यत्किमपि कर्म करोति तत्र दक्ष इत्युक्ते स्किल्ड्, तर्हि तादृशदक्षता अपि च तत्र सहनशीलता अपि वक्तुं शक्नुमः. तर्हि तत्र त्वरया कार्यं न करणीयं, विचिन्त्य तस्य फलं किं भवति इति विचिन्त्य कार्यं करणीयम् इति अस्ति. तदनन्तरं रूपे च कृष्णः, एतदपि महोदयेन बहु समीचीनतया विवृतवान्. केवलं सौन्दर्ये इति नास्ति, कृष्णः इव तत्र सर्वेषु कार्येषु सः कृष्णः इव भवतु इति. अपि च क्षमा तु रामः क्षमाशीलः, सहनशीलः. तर्हि तादृशगुणाः पुरुषेषु भवेत् इति, भवेयुः इति. तदनन्तरं भोज्येषु तृप्तः, एतत् नूतनमासीत्, महोदयस्य श्लोके नासीत्. तर्हि यत्किमपि खादामः तत्र तृप्तिः इत्युक्ते कण्टेण्ट्मेण्ट्. तत्र सर्वदा किं भवति अद्यतनकालेषु, वयं यत्किमपि खादामः यत् सम्यक् नास्ति, केवलं खादनविषये नास्ति, कुत्रचित् अपि यत्र दोषः वर्तते तदेव प्रथमं वदामः. परन्तु तत्र बहवः गुणाः सन्ति, तस्य प्रतिपादनं न कुर्मः, तादृशं न भवेत्. भोज्येषु तृप्तः, सुखदुःखमित्रं, सुखेषु अपि च दुःखेषु सर्वेषु प्रसङ्गेषु कः सन्मित्रमस्ति? अस्माकं साहाय्यं यः केवलं सुखेन करोति, दुःखे अपि कर्तुं झटितिः आगच्छति, स एव सन्मित्रमस्ति किल, तादृशमित्रं भवेत् इति. षट्कर्मयुक्तः खलु धर्मनाथः इति एकः पाठान्तरः दृश्यते. बहु समीचीनमासीत्. अपि च यथा महोदयेन प्रतिपादितं, तत्र अर्धनारीश्वरतत्त्वमपि अत्र स्वीकरणीयं, निश्चयेन करणीयं. यतोहि सर्वदा सर्वेषु केवलं स्त्रियाणां नो चेत् पुरुषाणाम् इति नास्ति, गुणाः तु सर्वेषां भवति. यदा शिशुः भवति, मातुः अपि वात्सल्यं भवति, पितुः अपि वात्सल्यं भवति तत्र. तर्हि तथैव तत्र क्षमाशीलनं, सर्वाणि गुणानि द्वयोरपि वर्तन्ते. तथैव अस्माकं प्रसिद्ध सूक्तिः अस्ति किल, यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इति. अतः एतत्तु भारतीयपरम्परायां बहु प्रसिद्धा सूक्ति. तर्हि नारीणां माननं करणीयम्. अपि च यस्मिन् गृहे नार्याः पूज्याः भवन्ति तत् गृहं नितरां तत्र ऐश्वर्यं भवति, अपि च तत्र देवताः भवन्ति इति मन्यन्ते. समीचीनं वा? अग्रे सरामः वा?
द्वितीयश्लोकमिति खमण्डननीतिशास्त्र.
ओ एवं वा महोदय, पुनः वदतु कुत्र इति.
खमण्डननीतिशास्त्रम्.
ओ बहु उत्तमम्, अहं न दृष्टवती. तत् खमण्डननीतिशास्त्रम् इति अस्ति वा?
अहम् अपि न जानाति,
न श्रुतं. नीतिशास्त्रं यत्र कुत्रापि वयं पठामः तत्र भर्तृहरेः नीतिशास्त्रमेव नीतिशतकम् इत्येव प्रसिद्धः अस्ति. समीचीनं, धन्यवादः महोदय, उत्तमः प्रयासः, बहु उत्तमः. तर्हि गृहपाठं पश्यामः वा? प्रश्नः नास्ति इति मन्ये गृहपाठं प्रति गच्छामः. तर्हि गतवर्गे वयं तव तु रूपाणि दृष्टवन्तः, तत्र कोऽपि क्लेशः नास्ति इति मन्ये. अग्रे समानार्थे वयं लङ्लकाररूपमपि प्रयोक्तुं शक्नुमः इति सर्वे जानन्ति. तर्हि अत्र लङ्लकाररूपस्य विषये अग्रे सरामः. तर्हि अत्र पश्यन्तु, लङ्लकाररूपाणि दत्तमस्ति. अत्र सविता भगिनी आरब्धुमिच्छति वा? अत्र रूपाणि किञ्चित् पठति वा, लाभाय भवति इति. अन्म्यूट् करोतु भगिनि.
अचल् धातु अचलत् अचलताम् अचलन् अचलः अचलतम् अचलता अचलम् अचला वा अचलाम.
बहु समीचीनं. तर्हि तत्र कीदृशमस्ति, सर्वप्रथमं यत्किमपि यकोऽपि धातुः भवति तस्य पूर्वम् अकारः दृश्यते. लङ्लकारे सर्वेषु अकारः दृश्यते. तस्मिन् अर्थे एकं सूत्रमस्ति येन दशलकारः वयं जानीमः. तत्र त्रिषु लकारेषु धातोः प्राक् अकारः दृश्यते, लङ्लकारे, लुङ्लकारे अपि च लृङ्लकारे इति त्रिषु लकारेषु पूर्वम् अकारः दृश्यते इति मनसि भवेत् तावदेव. तर्हि चल् धातुः अस्ति, तर्हि तस्य प्राक् अकारः दृश्यते. सर्वेषु रूपेषु तथैव अस्ति. अचलत् अचलताम् अचलन् अचलः अचलतम् अचलत अचलम् अचलाव अचलाम. इदानीं एकं सुबन्तपदं योजयित्वा अत्र वदति वा भगिनी? इत्युक्ते रामः अचलत्, तादृशम् एकं सुबन्तपदं स्थापयतु पूर्वम्, अपि च रूपाणि पुनः वदति वा?
रामः वनम् अचलत्, रामलक्ष्मणयोः वने भोजनार्थम् अचलताम्.
भगिनि, इदानीं सर्वेषाम् अवगमनार्थमेव, तर्हि तत्र बहूनि पदानि अपि न आवश्यकं, परन्तु प्रामुख्यं किम् इत्युक्ते तत्र सुबन्तपदं किं स्थापयति इति द्रष्टव्यं. भवती किम् उक्तवती, रामलक्ष्मणयोः इति, परन्तु रामलक्ष्मणयोः इति षष्टिसप्तमीपदम्, षष्ट्यन्त अपि च सप्तम्यन्तपदम्. हा, तर्हि तदर्थमेव अहम् उक्तवती त्रीणि पदानि उपयुज्य वाक्यं करोति चेदपि पर्याप्तम्. अत्र यथा बालकौ,
बालकः अचलत्, बालकौ अचलताम्, बालके अचल अचल अचलन्,
बालके इति भवति वा, पुनः सप्तमी जातं तत्र,
बालकाः क्षम्यतां,
न चिन्ता मास्तु, मध्यमपुरुषः,
मध्यमपुरुषः
अत्र सुबत्तपदं किं भविष्यति?
त्वम् अचलः, युवाम् अचलतं, यूयम् अचलत, अहम् अचलम्, अहम् अचलम्, आवाम् अचलाव, वयम् अचलाम.
बहु उत्तमम्. इदानीं चल् धातोः तव तु रूपं किं, पुल्लिङ्गे वदतु.
चलितवान्,
चलितवान्. तर्हि चलितवान् इति उपयुज्य एकं वाक्यं करोतु, एवमेव त्रीणि पदानि उपयुज्य. बालकः,
बालकः चलितवान्,
बालकौ चलितवान्, समीचीनं,
बालकौ चलितवन्तौ, बालके चलितवन्तः,
बालकाः,
बालकाः सारि चलितवन्तः.
त्वं,
त्वं चलितवान् चलितवान् युवां चलितवन्तौ यूयं चलितवन्तः अहं चलितवती आवां अहं चलितवान् आवां चलितवन्तौ वयं चलितवन्तः
इदानीं समानवाक्यानि स्त्रीलिङ्गे वक्तव्यम्
सा चलितवती ते चलितवत्यौ ताः चलितवत्यः
बहु उत्तमं
त्वं चलितवती युवां चलितवत्यौ यूयं चलितवत्यः अहं चलितवती आवां चलितवत्यौ वयं चलितवत्यः
बहु उत्तमं तर्हि अत्र कः पाठः इत्युक्ते तव तु प्रयोगः यथा कुर्मः तत्र पुरुषभेदः नास्ति इत्युक्ते रामः चलितवान् त्वं चलितवान् अहं चलितवान् इति सर्वत्र तथैव रूपाणि भवन्ति परन्तु लिङ्गभेदः वर्तते बालकः चलितवान् बालिका चलितवती इति तत्र लिङ्गभेदः भवति परन्तु पुरुषभेदः नास्ति इति मनसि स्थापनीयं समीचीनं वा हा इदानीम् अस् धातुः रूपाणि पठतु प्रश्नाः सन्ति चेत् पृच्छन्तु नो चेत् अग्रे पठामः
अस् धातु आसीत् आस्ताम् आसन् आसीः आस्तम् आस्ता आसम् आस्व आस्म
एतत् किञ्चित् विशिष्टरूपम् अस्ति अतः कदाचित् विस्मरणं जायते परन्तु चिन्ता मास्तु इदानीं स्था धातुः अस्ति स्था धातुः अपि तत्र विशिष्टरूपम् इत्युक्ते स्थास्थाने तिष्ठिति आदेशः भवति सूत्रमस्ति तदर्थमपि अतः स्थास्थाने तिष्ठिति जायते अतः पुनः तिष्ट् इत्यस्य पूर्वम् अकारः दृश्यते तस्यापि रूपाणि पठतु भगिनि
स्था धातु अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठः अतिष्ठतम् अतिष्ठता अतिष्ठम् अतिष्ठव अतिष्ठाम
तर्हि किं स्मर्तव्यम् अत्र धातोः पूर्व अकारः भवेत् इति तर्हि अग्रिमधातुः इष् इति अस्ति इष् धातोर्मध्ये किम् अभवत् अपि च अस् धातोर्मध्ये किम् अभवत् कः भेदः अत्र चत्वारः धातवः सन्ति किल प्रथमधातुः अपि च तृतीयधातुः पश्यति चेत् प्रथमवर्णः कः इत्युक्ते व्यञ्जन अक्षरं दृश्यते चकारः अपि च सकारः तर्हि तदर्थं व्याकरणरीत्या किं वदामः अजन्त इत्युक्ते स्वराक्षराणि अपि च हलन्त इति कथनेन व्यञ्जनाक्षराणि इति वयं जानीमः तर्हि चल् अपि च स्था धातु तत्र हलादिधातु आदिमवर्णः हल् अतः हलादिधातु परन्तु अस् अपि च इष् धातु अजादिधातु तत्र अच् वर्णः प्रथमवर्णः अकारः ईकारः स्वराः इति कृत्वा तर्हि अस् धातोः पूर्वं यदि वयम् अकारः एव स्थापयामः तत्र किं भवति अकारः योगः अकारः आकारः जातः तदर्थमेव रूपेषु आसीत् आसात् आस्ताम् आसन् इति सर्वत्र आकारः दृश्यते परन्तु इष् धातोः प्रसङ्गे इष् इत्यस्य पूर्वं यदि अकारं स्थापयामः तत्र अकार इकारयोजनेन सन्धिकार्यं जातं तर्हि तत्र अकार इकारस्य सन्धि कृतं चेत् तत्र एकारः प्राप्यते अकार इकारयोः स्थाने इत्युक्ते द्वयोः स्थाने अस्माकम् एकारः आगच्छति अत एव सामान्यतया किं भवति अकार इकारयोजनेन एकारः इति वदामः यथा चिन्तयतु इदानीं गण इति अस्ति अपि च ईशः इति अस्ति तर्हि मिलित्वा किं वदामः गणेशः इति भवति तथैव महेशः नरेशः सर्वत्र अकार ईकारयोजनेन एकारः आगच्छति परन्तु अत्र किं जातम् अत्र ऐकारः अभवत् अतः अत्र किं स्मर्तव्यम् इत्युक्ते अत्र किञ्चित् व्याकरणविषयः वदामि अत्र किम् इति अक्षरत्रयं गुण अक्षराः इति वदामः अपि च अक्षरत्रयं वृद्धि अक्षराः इति वदामः. गुण अक्षराणि इत्युक्ते तत्र अकारः एकारः ओकारः अ ए ओ इति गुण अक्षराः. अपि च आकारः ऐकारः औकारः इति अक्षरत्रयं वृद्धि अक्षरः इति वदामः. तर्हि यदि धातुः अजादिः अस्ति इत्युक्ते धातोः प्रथमवर्णः यदि स्वरः अस्ति तर्हि तत्र गुणस्य अपेक्षया वृद्धिः भवति. इत्युक्ते सामान्यतया गुणः भवति अकार इकारयोजनेन, परन्तु यदि धातुः अजादिः अस्ति तत्र गुणः न भवति, तस्य अपेक्षया तस्य स्थाने वृद्धि अक्षरः स्थापनीयः. तर्हि एकारः न भवति, ऐकारः भवति. तदर्थमेव अत्र ऐच्छत् ऐच्छताम् ऐच्छन् इति रूपाणि दृश्यन्ते. एकवारं पुनः वदामि, यदि प्रश्नः सन्ति चेत् पृच्छन्तु. वेरेवर् देर् इस् अ धातु विच् स्टार्ट्स् वित् अ कान्सनेण्ट् लैक् चल् अण्ड् स्था, यु जस्ट् हेव् टु प्लेस् द अकार इन् फ्रण्ट् अण्ड् join the words, okay? Achalat, atishtat, tadrasha rupani. Parantu, if you have the dhatu which starts with a vowel, like in as and ish, there, the sandhikaryam will happen, but a vriddhi action will happen and not a guna action. And for guna action, three letters are called guna letters. Akara, ekara, okara. These are called guna letters. And vriddhi letters are akara, aikara, aukara. So normally what we said like naresha means nara plus isha. There if you unite a and e, we get an a. In the place of both a, e, together we get the replacement substitute as the akara. Similarly if you have like eka plus eka, in place of a and a, we get an aikara. So here, but we have A plus E in respect of Ish Dhatu. A plus E, the normal course and Ekara will come. But because the Dhatu is a Dhatu starting with the Swarakshara, here the Aikara should take place. So it has come as Aicha. Similarly in Us also, although you are thinking that A is placed in front and A plus A will become a Savarna Dirgha Sandhi and we get an Akara, actually, you should not treat it like that because as dhatu is a dhatu having a vowel in the front. A vriddhi karyam is taking place. And what is the vriddhi akshara? Not akara, but akara. That is why we got asit, astham, asan. Am I clear?
Yes, madam.
So, anybody has doubt, you can ask. And if you feel that the grammar is heavy, then you can straight away remember the rupas.
Kshameta Mahodaya, as dhatuho vishaye krupaya punaha ekavaram bodhayato.
Mama api eka sandeha asti.
Also aichet also.
Nishtena. If the dhatu, nishtena, kativaram prachati cheta, no problem. Always, I mean, if you don't follow, ask again. So means don't feel that others have understood and we have not. Some people are going for grammar classes, some people may not be going. All the same, I'm just introducing little bit of grammar in the middle so that it becomes easy for you. Whenever you have a dhatu which starts with a consonant, then you have to just add akara. But if you have a dhatu which starts with a vowel like akara, ikara, then what happens? Instead of the normal action what we take, like Ganesha you can remember, and you can also remember Suryodaya if you want with Ukara. Like if you want Ganesha, Gana plus Isha, thereby euphony, that is Sandhikaryam, Akara, Ikara, when we united, what happens? In the place of both, Purva Parayoho Sthane, you will get only one substitute, and that substitute is a Gunakshara. In the normal case, okay? So, A plus E will become A. But in Ish Dhatu, what happened? Ish is a Dhatu starting with a bubble. So a guna akshara should not come and a vritti akshara will come. Vritti aksharas are a, I, au. So when you add a plus ish, you didn't get ish, but you get aichat. Because the shakara changes and there are lot other prakriya. Don't bother about those steps. So now it is aichat instead of achat. Similarly, in us also, akara is the first word, is a vowel. So when you add akara, a plus a, normal course we can say a plus a is a. But because us is a dhatu and it starts with a vowel, here the resultant should be a vriddhi akshara and not a guna akshara. So a plus a, what is a guna akshara? A, a, o. But vriddhi akshara are a, I and au. So in case of us, we got a in the beginning everywhere. Is it clear now?
Upasarga is there, madam. Then also you have to take only the dhatu and then add the upasarga.
The next lesson will be upasarga, but we'll handle this in the next.
Okay. Thank you.
So
there
means we have to see how it
is. Mahodaya, ek related message mein post kiya group mein because for this Aichat. I have posted now.
Okay. Others can see after the class, okay? So this is the rule now and the forms we have to remember accordingly. So now, Dhanyavad Savita Bhagini. Pratap Mahodaya, Agrima Patati.
Mahodaya, I have one doubt here.
Kshamitam
bhagini. Usually it is Savarna Dirgha, no? So here in Asadhatu, it cannot be Vriddhi, right? Because always I or Au comes, no?
If you are doing like Daitya plus Arihi, then I will put Daitya Arihi because I am not involving a Dhatu there. This Vriddhi, what I am saying is, with respect to dhatus which start with swarakshara.
Dhatu has a different rules for with these. I was not aware of this.
This is a little bit more this thing. So in attaining, in obtaining these tinganta rupam, that is for the kriyapadams, this rule we will follow. That will become a nama padam, no? Daityarihi, if I say, or if I say vidyalayaha. There and all, it will be just A plus A plus A. So there, it will continue with the same thing.
Because when we were learning Sandhi, with the sutra which we learned was Riddhi Rechi. So there is no H Pratyahar in Asdhatu. So how come I was thinking it is Asit and not...
Because in Sandhi Karyam, what happens, Bhagini? In Sandhi Karyam, normally we will only use A and O for Guna, I and O for Vritti. But these are special situations. And this one particular is relating to Dhatus. Kriyapadams.
Dhanyavada.
Uttam. Then, Pratap Mahode Astiva?
Aam Mahode. Yes, just a comment. It's a clear as mud, I can say. But
pardon?
Clear as mud. Understand it, but I will never remember. I think I'll become perfect in my next life. If I keep trying.
Slushy.
I'll keep trying, but I'll become perfect.
Yeah. That's why I think in every class we are going slow also, and we'll keep repeating them also. By repeating, repeating, it gets embedded, right?
Yes, gets into the dull minds. Dhanyavada. Vakyani rachayantu abhyasam chakruvat. Pradama purusha. Ekavachanam, divyachanam and bahuvachanam. Iti padani saha, sa bhavan bhavati. Saha apatat, saha achalat. It's the same. Si sa agachat, sa agachat. Bhavan apatat, bhavati achalat. Bhavati agachat bhavati agachat.
Atra sarvatra saha sa bhavan bhavati iti kasmin purushe bhavati etani padani.
Pratama purushe. Yeah. Dvivachanam saha tau and te bahuvachanam and sa te taha and bhavan bhavantau bhavantaha bhavati bhavachau bhavachah. So dvivachanam tau apatatham te achalatham bhavantau agachatham bhavachau agachatham. Bahuvachanam te apathan aha srilinga achalan bhavantah agachan bhavachah agachan.
Bahu uttamam mahode. Idanim pratama purushah jatah. Dhanyavadah mahode.
Tarhi
pratama purusha rupani idanim drishtavantah. Idanim madhyama purushah pashyamah. Nalini bhagini patati va?
Aam bhagini. Madhyama purushah ekvachanam tvam apathah or tvam achalah tvam agachah tvam agachah. Dvivachanam yuvam apathatam yuvam achalatam yuvam agachatam yuvam agachatam. Bahuvachanam yuyam apathata yuyam achalata yuyam agachata yuyam agachata.
Bahu uttama. Atra tu kleshah nasti. Tarhi uttama purushe api vadatu idani.
Uttama purushah ekavachanam aham apatham aham achalam aham agacham aham agacham. Dvivachanam avam apathava avam achalava avam agachava avam agachava. Bahuvachanam vayam apathama vayam achalama vayam agachama.
Tankana dosha vartate dvivachane yad uktavati agachava agachava iteva bhavet.
Yes, that's what.
Vayam tankana dosha
vayam apathama vayam achalama vayam agachama vayam agachama.
Atrapi kleshah nasti kevalam pratama purushe kadachit asmakam brahmah bhavati parantu idanim tu spashtah bhavati iti mani. Atra tadrsha vyasah
mahodaye this langlakara rupam asti kalu apatat apatatam. A should not be distinctly pronounced, no? There should not be any pause between a patam. A patam is a single word, no?
Satya.
It should be pronounced without a pause, like apatam, apatatam, apatam, that apa should be together.
It is together because it is one word.
Yes.
Yeah. Just in the initial stages, some people to remember that it is.
Yes, I agree.
Satyam. Astu. Astu mahodaya. Apathat, apathatam, apathan. Like that.
Yes.
Bhavati, agrimam vadatu bhagini atra, nalini bhagini. Anamat iti asti kri.
Dhatuhu, and then dhatu is pat, prathama purusha, apathat, apathatam, apathan. And then nam dhatu, prathama purusha, anamat, anamatam, anaman. Has dhatu, madhyama purusha, ahasaha, ahasatam, ahasat. Khad dhatu, uttama purusha, akhadam.
Akhadam. न अत्रापि दोषः वर्तते. अत्रापि उपरि यत् पठितम् उत्तमपुरुषे आकारः नास्ति. अत्र अहम् अपठम् तादृशम् अत्र आकारः न वर्ते.
ओके, सो अखादम्, अहम् अखादम्, देन् अखादा, अखादाम्.
तत्र मकारः वकारः पूर्णतया उच्चारणीयम्. तत्र
खादाम,
नो चेत् वकारः केवलं व्यञ्जनम् इति चिन्तयामः खलु, तर्हि तादृशं मास्तु. धन्यवादः भगिनि, धन्यवादः. श्रीनिवास महोदय, भवान् कर्तुम् इच्छति वा?
I don't have access to screen, bhagini.
Kimartam? Aham tu atra share kritavati, na drishyate va?
No.
Parantu rupani janati va? If I give you the dhatu, can you tell me the forms?
I will try.
Make a try, mahodaya. तत्र इदानीं वद् इति धातुः अस्ति. वद् धातोः प्रथमपुरुषरूपाणि वक्तव्यं, लङ्लकार प्रथमपुरुषरूपाणि. पट् इत्यत्र किं जातम्? अपठत् इति उक्तवान् खलु? तदैव, तथैव इदानीं वद् धातुः किं भवति?
अवदत्.
उत्तमं, द्विवचने
अवदामः.
अवदताम्, अपठताम्,
अवदत्. अवदामः
न, उत्तमपुरुषः नास्ति अत्र. अपि च अत्र पश्यतु, अपठत्, अपठताम्, अपठन् नकारः. तर्हि अवदत्, अवदताम्, अवदन्,
अवदन्,
अवदन् नास्ति तत्. भवतः पार्श्वे गीतासोपानं पुस्तकमस्ति वा?
गीता न भगिनि.
नास्ति वा? तर्हि तत्र साफ्ट् कापि अपि अस्ति. तद् मीन्स् अनन्तरं पश्यतु, अपि च स्वीकृत्य स्थापयतु, तर्हि वर्गे लाभाय भवति इति. इदानीं शृणोतु तत्र. धन्यवादः महोदय.
Somebody
will place it on the group for you.
Oh, okay, thank you.
But are you in the WhatsApp group? I don't think so.
No.
No. तर्हि मम संख्यायां, दूरवाणीसङ्ख्यायाम् एकं सन्देशं प्रेषयतु. सेण्ड् मी अ मेसेज् आन् मै वाट्सप् नम्बर् विच् इस् आन् दि
ओके
मेल्, देन् ऐ विल् एड् यू इन् द ग्रूप्.
ओके,
अस्तु. देन् यू केन् गेट् इट् अण्ड् यू केन् फालो अप् आल्सो, बिकास् सम् एक्ससैसस्, सम् डिस्कशन्स् विल् बि हेपनिङ्ग् इन् द वाट्सप् ग्रूप् आल्सो. यू केन् जायिन् इट्. धन्यवादः महोदय. निर्मला भगिनी अग्रिमं करोति वा? क्रीड् धातुः. भगिनि चिन्ता मास्तु, उषा रामकृष्णन् वदति वा क्रीड् धातुः?
आं भगिनि. अक्रीडः, अक्रीडतम्, अक्रीडत. भ्रम् धातु, अभ्रमतः,
अत्र उत्तमपुरुषः अस्ति भगिनि.
उत्तमपुरुषः. ओके, आभ्रमतम्, आभ्रमताव, आभ्रमताम.
उपरि पश्यतु किम् अस्ति, उत्तमपुरुषे किम् अस्ति? अहम् अपठम्.
ओ, आभ्रमम्, आभ्रमम्, आभ्रमम्. ओके, आभ्रमम्, आभ्रमदाव, आभ्रमदाम.
किमर्थं दकारः मध्ये? ब्रह्मेव धातुः खलु, तर्हि केवलं
तावदेव.
तर्हि अभ्रमम् अभ्रमाव अभ्रमाम
अभ्रमम् अभ्रमाव अभ्रमाम
अग्रिमम्
अण्ड् देन् प्रथमपुरुषः अ प्लस् गम् दातु आगच्छत् आगच्छताम् आगच्छन्
अग्रिममपि करोतु.
नृत् दातु अनृत्यः अनृत्यतम् अनृत्यत
समीचीनं.
चल् दातु
धन्यवादः भगिनि. उषाजनका करोति वा अग्रिमम्?
आं भगिनि.
हत् दातु प्रथमपुरुषः
न भगिनि, अत्र किम् अस्ति चल् धातुः दृश्यते.
चल् दातु उत्तमपुरुषः अचलम् अचलाव अचलाम.
क्षम्यतां भगिनि, स्क्रीन् न दृश्यते.
स्क्रीन् न दृश्यते वा अन्येषां कृते? तत्र तु क्लेशः नास्ति, इदानीं भङ्गः अपि न जातत्, विद्युत् तु समीचीनमस्ति. हा, धातु शृणोतु अपि च रूपाणि स्मरन्तु. पत् धातु हा सत्यं, पुनः आगच्छतु. उत्तमं, पत् धातोः रूपाणि.
पत् धातो प्रथमपुरुषः अपतत् अपततां अपतन्. लिक् धातो अलिखत् अलिखः अलिखतम् अलिखत. दृश् धातु अपश्यं
पुरुष न मध्यमपुरुष न
अलिखः इत्येव उक्तवती खलु, अलिखतम् अलिखत इत्येव
अपश्यम् अपश्याव अपश्याम.
समीचीनं, धन्यवादः भगिनि.
ओके
धन्यवादः. इदानीं श्रीकान्त महोदय करोति वा?
आं महोदय.
अत्र गी इति नास्ति धातुः.
गम्
न न, अत्र गायति इति अस्ति किल, तस्य उत्तमपुरुषरूपाणि. धातुः अत्र गै इति भवेत्.
गै धातु
अगयाम
अगायम्
अगायम् अगायाव अगायाम. नेक्स्ट् गम्
दातु प्रथमपुरुषरूपाणि.
अगच्छत् अगच्छताम् अगच्छन्.
उत्तमं, पा दातु
पादातु मध्ये अपिबत्
अपिबः
अपिबः अपिबतम् अपिबत.
श्रू धातुः
श्रू अश्रुणम् अश्रुणम् अश्रुणाव अश्रुणाम.
अत्र धनलक्ष्मी भगिनी साहाय्यं कर्तुम् इच्छति वा?
आं महोदय. अशृणुः अशृणु
अत्र
उत्तमपुरुष अशृणु ओ ओ ओ अत्र
उत्तमपुरुषरूपाणि
अशृण्म
अशृणाम अशृणम्
अशृण्वम् अशृणम् अशृण्व
का उक्तवती?
उषा जनका भगिनी.
अशृण्वम् अशृणाव अशृणाम.
अत्र अत्र रूप बहुवचने तु दत्तमस्ति किल, किं दत्तमस्ति?
ओके अशृणुम सोरि न वै गेट् इट् भगिनि. अशृण्म अशृण्माव अश्रुण् अश्रुण्म अश्रुणाव अशृणव अशृणुम अशृणुव अशृणुम
महोदय अत्र पश्यतु किं भवति इति
अशृणुम
न प्रथमपुरुष उत्तमपुरुष एकवचने अशृण्वम्
अशृण्वम्
अशृणवम् अशृणवम् द्विवचने किं भवति अत्र किम् अस्ति अशृणुम इति अस्ति तथैव अशृणुव अशृणुव तर्हि अशृणुव अशृणुम परन्तु अत्र रूपद्वयं भवति विकल्पेन अन्यत् रूपमपि साधुरूपम् एकवचने अशृणवम् द्विवचने अशृणुव अशृणुव two forms you can get one is ashrunuva another one will be ashrunuva there won't be any ukara it will be kevalam vyanjana nakara ityukte ashru nakara vakara nakara da not nakara uttarvarti akara tarhi ashrunuva ashrunuva tathaiva ashrunuma ashrunuma इति रूपद्वयं भवति चिन्ता मास्तु कोऽपि रूपं वदति चेत् समीचीनं नी दातुं वदतु महोदय इदानीं
अनियत अनियत अनियताम् अनियताम् अनियत अनियत्
बहुवचने किं भवति
अनियन्
अनि अत्र नी अस्ति परन्तु अत्र किञ्चित् कार्यं भूत्वा तत्र नी इति न तिष्ठति तत्र सन्धिकार्यं भूत्वा नी इत्यत्र लट्लकाररूपं किम् अस्ति इति वदतु
नयति
नयति तर्हि अत्रापि तथैव नय इत्येव आगच्छति सन्धिकार्यं भूत्वा इदानीं नय इत्यत्र पूर्वम् अकारः स्थापयतु
सो अनयत् अनयन्
आम् अनयत् अनयताम् अनयन् परन्तु धातुः नी इति स्मर्तव्यम् ओके द युफानी एक्शन्स् विल् टेक् प्लेस् अण्ड् नी विल् बिकम् नय अग्रिममपि करोतु पृच्छ
अपृच्छत् अपृच्छताम्
मध्यमपुरुषरूपाणि मध्यमपुरुषरूपाणि
अपृश्यत्
किमर्थं तकारः स्थापयति मध्यमपुरुषे तु विसर्गः आगच्छति खलु
अपृश्यः
अपृच्छः
अपृच्छः अपृच्छः अपृच्छतम् अपृच्छत
अपृच्छत अत्रापि किं स्मर्तव्यं धातुः कुत्र धातुः पृच्छ् इति नास्ति प्रच्छ इति अस्ति
प्रच्छ
हा परन्तु रूपेषु तत्र पृ इति भवति पकारः ऋकारः परन्तु धातोः मध्ये पकारः रेपः अस्ति तर्हि तत्रापि स्मर्तव्यं विशिष्टधातुः इति प्रच्छ विल् बिकम् पृ पृच्छति हा तथैव अत्र अपृच्छः अपृच्छतम् अपृच्छत इति धन्यवादः धन्यवादः राधिका भगिनी समापयतु वा
आं भगिनि भूधातुः उत्तमपुरुषः अभू अभूव अभूम
भगिनी कुत्रचित् गतवती उत्तमपुरुषरूपाणि प्रथमं भू इत्यत्र लटी किं भवति लट् रूपं किं भवति
भवति
भवति तर्हि तथैव अत्र भूस्थाने भव इति चिन्तयतु इदानीम् अकारं योजयतु किमर्थं भू भू इदानीं भव इति जातं खलु यदा नी इति नय अभवत् तथैव भू इदानीं भव इति अस्ति तर्हि अभवम्
अभवम् अभवम्
भू नास्ति अभवाम पट् इत्यत्र वदतु पट् इत्यत्र वदतु एकवारम् अपठम्
उत्तमपुरुष मेडम्
अपठम् अहम् अपठम् आवाम्
अहम् अपठम् आवाम् अपठाव वयम् अपठाम
तथैव इदानीं भूधातुम् उपयुज्य वदतु अहम्
अहम् अभूवम्
अत्र अभवम् अहम् अभवम् ऐ बिकेम्
अभवम् ओके अभवम्
आवाम्
आवाम् अभवाम
अभवाव
अभवाव अभवाम
So put bhava in the middle and a and then put the makara vakara ava ama
okay abhavava abhavama
samichina kath
kath kath prathama purushah kathayat kathayatam kathayan sthajatu madhyama purushah atishtah atishtatam atishtat
धन्यवादः भगिनि धन्यवादः इदानीं उमा भगिनी अपि च अवदति अत्र मीनाक्षी भगिनी द्वावपि सम्भाषणं पठताम् आचार्यः मीनाक्षी आचार्यः अपि च छात्राः अत्र उमा भगिनी इतोपि
भोः छात्राः अद्य भवन्तः किं ज्ञातुम् इच्छन्ति
भगिनि एकनिमिषं क्षम्यतां अत्र एतस्य प्राक् वयम् अत्र तु स्म इति उपयोगः आगतम् परन्तु एतत् अनन्तरं पश्यामः अत्र इतोपि किञ्चित् लङ्लकारविषये एव पठामः एतत् पठतु भगिनि इदानीं स्क्रीन् दृश्यते वा वर्तमानकालः भूतकालः
दृश्यते महोदय
इदानीम् एतत् पठतु भगिनि
उच्चैः पठत जानित च वर्तमानकालः लट् भूतकालः लङ् सुरेशः भक्तियोगं पठति सुरेशः भक्तियोगम् अपठत्
तर्हि पठति इत्यत्र लट् रूपम् अपठत् इति लङ् रूपम्
अस्तु
तत्रैव तव तु स्थापयति चेत् किं भवति
पठितवान्
उत्तमम्
श्यामः
प्रदर्शिनीं
श्यामः गीताप्रदर्शिनीं पश्यति श्यामः गीताप्रदर्शिनीम् अपश्यत् श्यामः गीताप्रदर्शिनीं दृष्टवान्
उत्तमं
ताः मथुरां गच्छन्ति ताः मथुराम् अगच्छन् ताः मथुरां गतवन्तः गतवन्तः ताः
ताः इति
सा च ताः गतवत्यः क्षम्यतां महोदय क्षत्रियः युद्धं लभते क्षत्रियः युद्धम् अलभत क्षत्रियः युद्धं न जानामि
जयन्ती भगिनी सहायं करोति वा
लब्धवान्
धन्यवादः भगिनि धन्यवादः जयन्ती भगिनी
लब्धवान् करोमि वा
आं भगिनि
अग्रिम सर्वे कर्मणः फलं भुञ्जते सर्वे कर्मणः फलम् अभुञ्जत तव स्वरूपं भुञ्जितवान् पुष्पवे
अत्र भुक्तवान्
भुक्तवान् सारि भुक्तवान्
बहुवचने किं भवति
भुक्तवन्तौ वन्तः भुक्तवन्तः अहं कृष्णं भजे अहं कृष्णम् अभजे भजितवान् भजितवान्
अत्र भक्तवान्
अच्छा भक्तवान् ओके अर्जुनः प्रज्ञावादान् भाषते अर्जुनः प्रज्ञावादान् अभाषत भाषितवान् सात्विकाः देवान् यजन्ते सात्विकाः देवान् अयजन्त याचितवान्
अत्र यज् दातु भिन्नः अपि च याच् दातु भिन्नः
देवान् यजन्त यजन्त इत्युक्ते यजन्ते यज्
इत्युक्ते पूजितवन्तः इति
अच्छा
यागं कुर्वन्ति अपि च पूजां कुर्वन्ति किल
यज्ञ
तथैव
यज्ञ ज अस्ति खलु यज्ञ यज्ञितवान्
देवस्य पूजा सेवा
यज्ञितवान्
तत्र किञ्चित् विशिष्टकार्यं भवति इति मन्ये द्रष्टव्यं यथा बज् इति इदानीं भक्तवान् इति जातं किल तत्रापि कानिचन सन्धिकार्याणि भवेयुः अहमेकवारं पश्यामि
यज्ञवान्
न तथापि न भवति
अस्तु अस्तु ओके
यथा भज् इति भक्तवान् जातं तथैव भवति नो चेत् विशिष्टसूत्रम् अस्ति वा इत्येव इत्यपि द्रष्टव्यं कदाचित् किं भवति एकस्मिन् धातौ विशिष्टरूपं भवति तर्हि अहं दृष्ट्वा गणे स्थापयामि धन्यवादः भगिनि धन्यवादः
अस्तु महोदय किञ्चित् कार्यमस्ति अहं कक्षां बहिः आगच्छामि
अस्तु अस्तु चिन्ता मास्तु अत्र सर्वे पठितवन्तः वा
अहं न पठितवती
का नाम उचितं कृपया
माधवी
हा धनलक्ष्मी भगिनी माधवी भगिनी अपि च सुरेश महोदय वा अस्तु
न श्रूयते वा महालक्ष्मी अस्मि
ओ न श्रुतमेव भवत्याः ध्वनिः इदानीमेव श्रूयते मौनेन ओ न श्रुतम् एतावता ओहो अहमपि चिन्तितवती किमपि कार्यम् आगतम् इति कथं भवति अद्य न आगतवती इति चिन्तनम् आसीत्
मनसि अहं पञ्चनिमिषं विलम्बेन आगतवती
अस्तु 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 धनलक्ष्मी भगिनी अत्र भाषा इत्यत्र रूपाणि पठति वा
आं महोदय भाष धातुः
कीदृशधातुः कीदृशधातुः प्रथमं भाषा इति परस्मैपदी नास्ति अत एव अभाषत् इति न अभवत् परस्मैपदी अस्ति चेत् अपठत् वन्द् धातुः तथैव अत्र अवन्दत्
अभाषत अभाषेताम् अभाषन्त अभाषा अभाषथाः अभाषेथाम् अभाषध्वम् अभाषे अभाषावहि अभाषामहि
So see the difference between Parasmaipada and Atmanepada. So we had like apashyat apashyatam apashyan, but here what we are having, abhashata abhashetam abhashanta, and in madhyama purusha we had apashyah apashyatam apashyata, but in atmanepadi it will be thah itam dvam, so abhashatah abhashetam abhashadvam, and in uttama purusha we had apashyam apashyava apashyama, but if it is atmanepadi it will be abhashe abhashavahi abhashamahi, like avande avandavahi avandamahi. So have one dhatu and remember the forms, and then you can extend it to the parasmaipadis or atmanepadis. But of course there are always visishta dhatus. Idani bru dhatu ho patatu bhagini.
ब्रू धातुः अब्रूत अब्रुवाताम् अब्रुवत अब्रुथाः अब्रुवाथाम् अब्रूथम् अब्रुवि अब्रूवहि अब्रूमहि.
See here also ब्रू is a very special धातु. In the द्विवचने किं भवत् ऊ स्थाने उव इति जातम्, तर्हि एकवचने अभ्रूत् इत्येव अस्ति, परन्तु द्विवचने किं जातम्, ऊकारस्य स्थाने उव इति आगतम्, तर्हि अब्रुवाताम् अब्रुवत, तथैव अब्रुवाथाम् अपि च अब्रूवहि अब्रूमहि. सो अदर् प्लेसस् देर् आर् सम् स्पेशल् एक्षन्स् हेपनिङ्ग्. तर्हि पुनरेकवारम् एतत् पठति वा अब्रूत इति?
आं महोदय. अब्रूत अब्रुवाताम् अब्रुवत अब्रूथाः अब्रुवाथाम् अब्रूध्वम् अब्रुवि अब्रूवहि अब्रूमहि.
धन्यवादः भगिनि.
धन्यवादः महोदय.
महोदय
आम्
सम् रिलेटेड् डौट्स्. This abravit, where does it fit in, ma'am, in this?
Abravit, when you say, that will be in respect of parasmaipadi. Bru is an ubayapadi dhatu. Tarhi bru ityatra parasmaipadi rupani bhavet chet abravit iti bhavet. See, bru is a both parasmaipadi and ubayapadi.
That is in abravit, in that will be in pratham purusha only, no? Then
So if you want to say I told, you can say abravit abruta, both are right, but only thing is you are using the atmanepadi forms or parasmaipadi forms, both have the same meaning.
No, I just wanted to know where it does it fit in.
Ramaha abravit,
Raja vachanam abravit, that is why here in that.
Very good. Raja vachanam abravit, Raja is prathama purusha, right?
Yes.
So you will say abravit, but if you want to use parasmaipadi you can also say Raja vachanam abruta.
Okay.
So it is the same like how you used abravit, it will be abravit abrutam abruvan. Instead of that you can use abruta abruvatam abruvata.
Okay.
Lathakara rupam brudatu
brudatu braviti अपि च आत्मनेपदि रूपं भवति ब्रूते. सो इफ् ऐ वाण्ट् टु से रामः, रामा इस् टेलिङ्ग् और् रामा टेल्स्, देन् ऐ विल् से रामः ब्रूते, रामः वदति इत्यर्थः. नो चेत् रामः ब्रवीति, देट् आल्सो हेस् द सेम् मीनिङ्ग्. रामः ब्रवीति, रामः ब्रूते, रामः वदति, रामः कथयति, रामः गदति, Ramah lapati, all have the same meaning.
So it gets the root of vadati first actually.
No. It's not getting the root of vadati.
I meant not the verb. This vadati is...
meaning I'm saying. The meaning is... Yes. Samanartakah.
Okay.
Dhatavah.
This rupam is quite distinct because ekavachana bru bru bru, bahuvachana dvivachana bru bru bru, bahuvachana bru bru bru, So,
whenever we add the suffixes, lot of actions take place. यत्र यत्र प्रत्ययान् योजयामः तत्र तत्र सन्धिकार्याणि भवन्ति. सो दट् ओन्लि वेन् यु रीड् द ग्रामर् यु विल् गेट् इट्. अदर्वैस् वि हव् टु रिमेम्बर् द रूपास् लैक् दिस् वन्. बिकास् इफ् अ पर्टिक्युलर् सफिक्स् फालोस् देन् इन् दट् केस् उ विल् बिकम् उव. सो दट् हेपन्स् इन् द द्विवचनरूपं वाट् यु सा नौ. ब्रू बिकेम् ब्रूव.
Even then in the Uttama Purusha it becomes Abruvahi.
Where it is Abruvata, there also Bruva has come, no?
In Uttama Purusha it says Abruvahi.
Uttama Purusha. Bruvahi, Bruvahi. There it does not happen. So it depends what letter is following it.
Okay.
So the suffix letters are important in all those, Mahodaya. Then this is also the same thing whatever we saw, no? Here you see he has given both Parasmaipadi and Atmanepadi together. Suresh Mahodaya, Bhavan eva patati va?
Haan Mahodaya. Saha, sa, bhavan, bhavati, tau, te, bhavantau, bhavatyau, te, taha, bhavantaha, bhavatyaha.
So first line corresponds to Parasmaipadi, Dvitiya Panktau, Atmanepadi Rupani Sandhi.
Saha Apatat, Saha Achalat,
So in the same place what happened? In Atmanepadi, the Takara becomes Vyanjana Akshara plus Akara, Labatha iti. Tadarthameva, Lekana Samaye, Patana Samaye, Dhyanam Bhavet iti. Avadhanam Bhavet.
सा अलभत सा भवान् असेवत तौ तौ अपठताम् ते अचलताम् भवन्तौ अलभेताम् भवत्यौ असेवेताम् ते अपठन् ताः अचलन् भवन्तः अलभन्त भवत्यः असेवन्त.
इट्स् क्लियर् रैट् हियर् हौ टु यूस् दि परस्मैपदी आत्मनेपदी रूपाणि कथं भवेत् भवन्ति इति अत्र निर्दिष्टमस्ति. धन्यवादः महोदय. महालक्ष्मी भगिनी अग्रिमं करोति वा मध्यमपुरुषे.
मध्यमपुरुषः त्वम् अपठः त्वम् अचलः त्वम् अलभथाः त्वम् असेवताः युवाम् अपठतं युवाम् अचलतं युवाम् अलभेथां युवाम् असेवेथां यूयम् अपठत यूयम् अचलत यूयम् अलभध्वं यूयम् असेवध्वम्. इट् इस् ईज़ी टु रीड् बट् टु रिमेम्बरिङ्ग् क्लेशः जातः.
सत्यं तदर्थमेव एकमेव रूपं स्वीकरोतु इति उक्तवती. पट् धातोः लट्लकार लोट्लकार लङ्लकार विधिलिङ्लकार तथैव बन्द् धातोः लट् लोट् लङ् विधिलिङ् इति रूपाणि स्मरन्ति चेत् बहुत्र तादृशमेव भवति. यत्र यत्र भिन्नरूपाणि भवन्ति तत्रैव पठनीयं. नो चेत् जनरलि द मोस्ट् आफ् देम् विच् आर् कामन् दट् केन् बि फालोड् वित् जस्ट् वन् फार्म्. अदर्वैस् डेफिनेट्लि आत्मनेपदी रूपाणि तत्र क्लेशः भवति एव तत्र अभ्यासेन एव.
मध्यमपुरुष बहुवचन अपि च आत्मनेपदी प्रथमपुरुष एकवचन समानमस्ति खलु. अपठत एण्ड्
अलभत
क्लेशः भवति.
एवं वा? तत्र पुनः एकवारम् इति उक्त्वा द्रष्टव्यम्. अवन्दत इत्युक्ते प्रथमपुरुष. परन्तु अत्र किमभवति द्विवचन क्षम्यतां मध्यमपुरुष बहुवचने एव तत् आगच्छति इति तत्र किञ्चित् चिन्तनीयं भवति. सर्वेषां गतिः समाना एव भगिनी. तत्र चिन्ता मास्तु. उत्तमपुरुषः अपि पठति वा?
उत्तमपुरुषः अहम् अपठम् अहम् अचलम् अहम् अलभे अहम् असेवे आवाम् अपठाव आवाम् अचलाव आवाम् अलभावहि आवाम् असेवावहि वयम् अपठाम वयम् अचलाम वयम् अलभामहि वयम् असेवामहि
तर्हि रूपाणि कीदृशम् अपठम् अपठाव अपठाम अपि च अलभे अलभावहि अलभामहि अवन्दे अवन्दावहि अवन्दामहि तर्हि अन्यत्रापि तथैव स्थापनीयं धन्यवादः भगिनि इदानीं केन न पठितम्
सर्वे
माधवी भगिनी पठतु सुशीला भगिनी हा अस्तु माधवी भगिनी अत्र करोतु
यथोदाहरणं धातूनां रूपाणि लिखत पठ धातु अपठत् अपठताम् अपठन् शुच् धातुः अशोचत् अशोचताम् अशोचन्
अत्र किं स्मर्तव्यं शु इति उकारः उपदायाम् अस्ति उपदा इत्युक्ते किम् अन्तिमवर्णः इति वदामः खल शुच् धातौ अन्तिमवर्णः कः चकारः तस्य पूर्वं कः वर्णः अस्ति ऊकारः तर्हि लास्ट् बट् वन् इति वदामः खलु पेनल्टिमेट् तदेव उपदा इति संज्ञा अस्ति तर्हि उपदायाम् उकारः वर्तते उकारस्य ओकारः भवति अपि च इकारस्य एकारः भवति इति स्मर्तव्यं तर्हि शुच् इत्यत्र अशोचत् बुद्ध् इत्यत्र अबोधत् तादृशम् अस्तु
नम् धातुः मध्यमपुरुषः अनमः अनमतम् अनमत वद् धातुः उत्तमपुरुषः अवदम् अवदाव अवदाम चर् धातुः मध्यमपुरुषः अचरः अचरतम् अचरत
धन्यवादः भगिनि
धन्यवादः
सुशीला भगिनि
मध्यमपुरुष आहरः अहरतम्
अहरतम् अहरत
अहरत
जनद्वयं वदन्ति
अजानाम
का इदानीम् अत्र केवलं सुशीला भगिनी किल अन्या का हा सुशीला भगिनी पठतु भगिनि वदतु
अजानाम् उत्तम पुरुष अजानाव अजानाम
करोतु
इज इट ओके
तत्र लट्लकार रूपं स्मरति वा लट्लकारे किं भवति
इट शुड बी हरति हरतः हरन्ति
न ज्ञा धातुर्विषये
हरामि
ज्ञा धातुर्विषये
अच्छा ज्ञा धातु
जानाति
जानाति
हा तो लट्लकाररूपं जानाति अपि च लङ्लकाररूपम् इदानीं किम् आसीत् प्रथमपुरुषे
अजानां
सो इन् प्रथमपुरुषे इत्युक्ते
अजानात्
परन्तु अत्रापि विशिष्टकार्यं भवति यथा वयं अजानात् नौ लट्लकाररूपम् आल्सो ट्रै टु रिकाल् लट्लकाररूपं सो लट्लकाररूपं किम् अस्ति अहं जानामि भवती जानाति नौ भवती जानाति अहं जानामि बट् इफ् टु आफ् देम् आर् देर् यू टु नौ इफ् ऐ वाण्ट् टु से यू टु नो इट् तर्हि तौ जानीतः सो इन् द्विवचनं किं आकार बिकम्स् ईकार सो जानाति जानीतः जानन्ति सो हियर् आल्सो सिमिलर्लि जानन्ति इट् बिकम्स् सो हियर् आल्सो वाट् यु हव् टु से फार् लङ्लकार what you said now ajanat in prathama purusha but in uttama purushah ajanam so nakara is akara is remaining ajanat ajanam but in dvivachanam it will be ajanitam na is becoming ni tarhi atra ajanitam and in uttama purusha similarly ha ajaniva सत्यम् इदानीं गम् धातुः
आगम् प्रथमपुरुष गम् गच्छति
सत्यं सो नौ एड् आ एण्ड् वाट् इस् द गच्छ
गच्छ
समीचीनं पत् धातुः पत् धातुः अपि वदतु भगिनि मध्यमपुरुष
मध्यमपुरुष अपतः अपततम् अपतत
उत्तमं धन्यवादः भगिनि इदानीं सर्वे उक्तवन्तः वा उषा भगिनी अहं पृच्छामि भवती वदति वा उषा के एन् दृश् दृश् धातोः उत्तमपुरुषरूपाणि
अपश्यम् अपश्याव अपश्याम
भ्रम् धातुः प्रथमपुरुषरूपाणि
अभ्रमत् अभ्रमताम् अभ्रमन्
उत्तमं स्मृ धातुः मध्यमपुरुष
अस्मरः
बहु उत्तमम्
अस्मरता अस्मरतम् अस्मरतम्
वेरि गुड् गै धातुः
किं कः पुरुषः महोदय
उत्तमपुरुषः
अगायम् अगायाव अगायाम
वेरि गुड् भगिनि बहु उत्तमं समीचीनम् इदानीं प्रच् धातुः अपि वदतु प्रच् धातोः प्रथमपुरुषरूपाणि
अपृच्छत् अपृच्छताम् अपृच्छन्
धन्यवादः भगिनि इदानीं प्रताप् महोदय वक्तुमिच्छति वा महोदय अस्ति वा नो चेत् श्रुधातुः वदतु महोदय मध्यमपुरुषरूपाणि
अश्रुमुतः
न एकवचने विसर्गः भवेत् खलु अश्रुणुः
अश्रुणुतः
न न अश्रुणुः शृणुः एव
तथा
दा इस् नाट् देर् इन् द मध्यमपुरुष
ओके ओके सोरि द्विवचनं अश्रुणुतां बहुवचनम् अश्रुणुत
उत्तमं कत् दातु
कत् प्रथमपुरुष अकथयत् अकथयताम् अकथयान् अकथयन्
इदानीं धातुः रमु इति अस्ति मध्यमपुरुष परन्तु रं धातुः आत्मनेपदी इति स्मर्तव्यम्
अरमथा
पुनः
अरमथाः
बहु उत्तमं
विसर्ग
visarga and
atreva dattam dvivachana rupam dattam pashyatu aramataha
arame arametham aramadvam
very good aramadvam iksh dhatuh
iksh
pashyatu atra अकारं पूर्वं स्थापयामः ईक्ष् इति अजादि धातुः अस्ति तर्हि अकार ईकार योजनेन अत्र ऐकारः जातः सो रिमेम्बर् वाट् वि सेड् इन् ईक्ष् आल्सो सिमिलर् टु दट् ईक्ष् तर्हि अत्र ऐक्षे
ऐक्षे
आत्मनेपदी रूपाणि
ऐक्षे
अत्र आत्मनेपदी खलु महोदय
औ
आवहि आमहि
ऐक्षवहि
ऐक्षावहि
ऐक्षावहि ऐक्षा ऐक्षामहि
समीचीनं सेव् दातु
सेव प्रथमपुरुष असेवत असेवताम् असेवन्त
असेवत् इति भवति वा एकपुरुष एकवचने
असेवत
असेवत उत्तमं किमर्थम् असेवत् इति न भवति
सेवा
न वै आर् वि नाट् सेयिङ्ग् असेवत् वै डिड् यु से असेवत् आत्मनेपदी धातु इति कृत्वा असेवत् यदि परस्मैपदम् आसीत् तर्हि तत्र असेवत् इति भवेत् परन्तु सेव् धातुः आत्मनेपदी इति कृत्वा
धन्यवादः
असेवन्त समीचीनं
महोदय अष्टाध्यायी मध्ये श्रू धातोः मध्यमपुरुषः अश्रुणोः इति अस्ति
ओहो वा तर्हि तत्रापि प्रत्ययस्य योजनेन तत्र किञ्चित् कार्यं भवेत् अहं सन्धिकार्याणि पश्यामि भगिनि
धन्यवादः
साधुः किम् इति अश्रुणोः इति अस्ति किल अपि च अन्यत् अपि अहं किम् उक्तवती तत्र यज् धातोः रूपं किल तदपि अहं दृष्ट्वा स्थापयामि यज् धातोः तवतु रूपम् अपि च शृणु धातु श्रुधातोः मध्यमपुरुष रूपम् अस्तु भगिनि
मैडम् फर् रमति रमति रं रमु बोतार् धातु
रमते इति आत्मनेपदी अस्ति भगिनि धातुः तु रम् इति व्यवहारे वयं वदामः परन्तु मूले धातुः रमु इति उपरि चन्द्रबिन्दु अपि वर्तते तस्य लोपः भवति बहुत्र वाट् एवर् वि आर् सीयिङ्ग् द धातुस् दे आर् डिरैव्ड् दे आर् नाट् दि ओरिजिनल् वन्स् देर् आल्सो देर् आर् सम् चेञ्जस् लैक् इफ् यु से vandate, we are reading the dhatu as vand, but actually in the root, original root, it will be vadi, vadi with the chandrabindu it will be. Then again changes are happening, because that will be more confusing, now we are eliminating the first few steps and giving this, so that it becomes easier to attach.
Okay.
Tarhi atrapi ramu iti rameva jayate.
Okay. Okay. Thank you.
समीचीनं तर्हि अत्र अद्य वयं किं कृतवन्तः अत्र लङ्लकारविषये एव पठितवन्तः अग्रिम वर्गे किञ्चित् तत्रापि वयं स्म इति अपि योजयितुं शक्नुमः प्रथम लट्लकाररूपाणि स्थापयित्वा स्म इति योजनीयम् एतत्तु सरलमेव अस्ति तर्हि अग्रिमवर्गे एतदपि पश्यामः तर्हि यत्र यत्र वयं भूतकालरूपं भूतकालार्थे वक्तुम् इच्छामः तत्र त्रिविधाः वक्तुं शक्नुमः किमिति तत्र एकं तु लङ्लकारम् उपयुज्य द्वितीयं तु तवतु रूपाणि भूतकृदन्तरूपाणि उपयुज्य तृतीयमपि लट्लकाररूपम् उपयुज्य तेन सह स्म इति योजनीयं तर्हि त्रिषु रूपेषु वक्तुं शक्नुमः. कुत्रचित् क्लेशः भवति इति चिन्तयतु, अहम् इदानीं लङ्लकाररूपं न स्मरामि, तर्हि झटिति किं करोतु, लतीरूपं स्थापयित्वा स्म इति करोतु. नो चेत् यदि तवतु रूपं जानाति तर्हि तवतु रूपं स्थापयतु. सो देर् इस् अ फ्लेक्सिबिलिटि. सो टु कन्वे द सेम् मीनिङ्ग् यु हेव् त्री आप्शन्स्. यथा सौकर्यं तथा वयं कर्तुं शक्नुमः.
Maybe they know that lang laka rupa is little confusing, so they have given us more options.
And but if we have yada trishu rupeshu samasya bhavati tarhi kim api kartum na shaknum. Satyam. There are lot of flexibilities, but there are lot of complexities also. So that is the beauty of the language. We have to get used to it. यद्यपि वयं वदामः सरलभाषा मधुरभाषा, परन्तु भाषायां बहुत्र तत्र काठिन्यं वर्तते. परन्तु तथापि वयं चिन्तनीयं तस्मिन् काले
यूसेज् आल्सो शोस् योर् स्तर नो द इट्स् आल्सो शोस् योर् स्तर आफ् योर् लर्निङ्ग् द लेवल् आफ् योर्
एबिलिटी हा टु पिक् अप् आल्सो एण्ड् टु रिमेम्बर् आल्सो. विस्मरणं रिकाल् आल्सो इस् वेरि इम्पार्टेण्ट्. सो तस्मिन् काले तेषां कृते पुस्तकानि नासीत्, सर्वं पठित्वा एव स्मर्तव्यं. सर्वं तत्र गुरुकुलपरम्परा एव आधारीकृत्य तत्र ते पठितवन्तः. तर्हि सर्वं श्रवणमेव तत्र. तर्हि श्रवणेन एव तत्र अल्पप्राणः वा महाप्राणः वा उच्चारणदोषः मास्तु, सर्वं ते ज्ञातवन्तः. अपि च स्मरणशक्तिः अपि अपारा आसीत्. नो चेत् चिन्तयतु, इदानीं पाणिनीयसूत्राणि सन्ति, परन्तु सूत्राणाम् अर्थम् अवगन्तुमेव अस्माकं क्लेशः भवति. परन्तु ते तु सरलतया कृतवन्तः. परन्तु सन्तोषस्य वार्ता, इदानीं बहवः जनाः संस्कृतस्य पठनम् आरब्धं कृतवन्तः. अपि च तेन अस्माकं मस्तिष्कस्य मथनमपि भवति. अपि च अल्जिमेयर्स् तादृश विस्मरणव्याधयः अपि न भवन्ति इति वक्तुं शक्नुमः प्रायशः. समापयामः वा अत्र?
मेडम्, देर् इस् अनदर् फार्म् आल्सो फार् पास्ट् टेन्स् नो मेडम्? इक्तप्रत्ययः.
हा, परन्तु इक्तप्रत्ययः भिन्नरूपेण योजयामः. तदपि भूतकालार्थे एव अस्ति. तस्य प्रायशः तत्र कर्मणि रूपेषु उपयुज्यते. बहु विरलतया तत्र केषाञ्चन नियमेषु एव तत्र वर्तमान तत्र कर्तरिरूपे उपयुज्यते. नो चेत् बहुत्र कर्मणि रूपमेव तत्र प्रयोगः भवति. परन्तु यदा वयं कर्मणि कुर्मः तदनन्तरम् इक्त इति गीतासोपानस्य द्वितीयभागे आगच्छति. मङ्गलं करोति वा महोदय? सुरेश महोदय न, क्षम्यताम्, अत्र सुशीला भगिनी करोति किल. क्षम्यताम्.
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. कायेन वाचा मनसेन्द्रियैः वा बुद्ध्या बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि. पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिश्शान्तिश्शान्तिः. ॐ द्यौः शान्तिः, अन्तरिक्षं शान्तिः, पृथिवी शान्तिः, आपः शान्तिः, औषधयः शान्तिः, वनस्पतयः शान्तिः, विश्वे देवाः शान्तिः, ब्रह्मशान्तिः, सर्वं शान्तिः, शान्तिरेव शान्तिः ॐ शान्ति शान्ति शान्तिः धन्यवादः
भगिनि धन्यवादः सर्वेषां
धन्यवादः भगिनि
धन्यवादः भगिनि
अग्रिमसप्ताहे
धन्यवादः